शेवधिर्यः पुमर्थानाम् षडध्वातीत विग्रहः राद्धान्तो निगमार्थानाम् प्रसद्याद्दत्त सद्गुरुः सच्चिदानन्दाय विद्महे गुरुश्रेष्ठाय धीमहि तन्नो ब्रह्मर्षिः प्रचोदयात् श्रीमहागणाधिपतये नमः श्रीमहासरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ आगमार्थम् तु देवानाम् गमनार्थम् तु रक्षसाम् कुर्वे घण्टारवम् तत्र देवताह्वानलाञ्छनम् इति घण्टानादम् कृत्वा अपवित्रः पवित्रो वा सर्वावस्थाम् गतोऽपि वा यस्मरेत् पुण्डरीकाक्षम् सबाह्याभ्यन्तरः शुचिः पुण्डरीकाक्ष आचम्या केशवाय नमः नारायणाय नमः माधवाय नमः गोविन्दाय नमः विष्णवे नमः मधुसूदनाय नमः त्रिविक्रमाय नमः वामनाय नमः श्रीधराय नमः हृषीकेशाय नमः पद्मनाभाय नमः दामोदराय नमः सङ्कर्षणाय नमः वासुदेवाय नमः प्रद्युम्नाय नमः अनिरुद्धाय नमः पुरुषोत्तमाय नमः अधोक्षजाय नमः नारसिंहाय नमः अच्युताय नमः जनार्दनाय नमः उपेन्द्राय नमः हरये नमः श्रीकृष्णाय नमः श्रीकृष्णपरब्रह्मणे नमः उत्तिष्ठन्तु भूतपिशाचाः एते भूमिभारकाः एतेषामविरोधेन ब्रह्मकर्म समारभे प्राणायामः भूम्यादेरूर्ध्वलोकस्य चोपरिस्थम् दिवाकरम् दशप्रणवसंयुक्तम् त्रिरावृत्या स्मरन् अङ्गुल्यग्रैर्नासिकाग्रम् सम्पीड्य श्वासरोधनम् प्राणायाममिति प्रोक्तमृषिभिः पापनाशनम् प्राणानायम् या उपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरप्रीत्यर्थम् शुभे शोभने मुहूर्ते श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भरतवर्षे भरतखण्डे मेरोर्दक्षिणदिग्भागे त्रिमूर्त्यात्मकश्रीदत्तात्रेयसद्गुरुसन्निधौ मम क्षेमस्थैर्यवीर्यविजय अभय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थम् भक्तिज्ञानवैराग्ययोग्यतासिद्ध्यर्थम् श्रीदत्तात्रेयस्वामिनमुद्दिश्य శ్రీదత్తాత్రేయస్వామి ప్రీత్యర్థం శ్రీదత్తాత్రేయ సద్గురు పూజా యథాశక్తి ధ్యానావాహనాది షోడశోపచార విధానేన కరిష్యే. ఆదౌ శ్రీ మహాగణపతి ప్రార్థనం. అభీప్సితార్థ సిద్ధ్యర్థం పూజితో యః సురైరపి సర్వవిఘ్నచ్ఛిదే తస్మై గణాధిపతయే నమః. శ్రీ మహాగణాధిపతయే నమః. ప్రార్థనం సమర్పయామి. కలశ పూజా. శ్రీదత్తాత్రేయ సద్గురు పూజాంగత్వేన కలశారాధనం కరిష్యే. కలశం గంధాక్షతపత్ర పుష్పైరభ్యర్చ్య హస్తేనాచ్ఛాద్య. కలశస్య ముఖే విష్ణుః కంఠే రుద్రః సమాశ్రితః. మూలే తత్ర స్థితో బ్రహ్మా మధ్యే మాతృగణా స్మృతాః. ఉక్షౌ తు సాగరాః సర్వే సప్తద్వీపా వసుంధరా. ఋగ్వేదోథ యజుర్వేదః సామవేదో హ్యథర్వణః. అంగైశ్చ సహితాః సర్వే కలశాంబుసమాశ్రితాః. ఆయాంతు దేవ పూజార్థం దురితక్షయకారకాః. గంగే చ యమునే కృష్ణే గోదావరి సరస్వతీ నర్మదే సింధు కావేరి జలేస్మిన్ సన్నిధిం కురు. కలశోదకేన పూజా ద్రవ్యాణి సంప్రోక్ష్య దేవం. ఆత్మానం చ సంప్రోక్ష్య శేషం విసృజ్య. ధ్యానం. బాలార్క ప్రభమింద్రనీలజటిలం భస్మాంగరాగోజ్వలం శాంతన్నాద విలీన చిత్తపవనం శార్దూల చర్మాంబరం. బ్రహ్మాద్యైః సనకాదిభిః పరివృతం సిద్ధైః సమారాధితం. ఆత్రేయం సముపాస్మహే హృది ముదా ధ్యేయం సదా యోగిభిః. మాలాకమండలురథకర పద్మయుగ్మే మధ్యస్థపాణియుగళే ఢమరుత్రిశూలే యస్యస్త ఊర్ధ్వకరయోః శుభశంఖచక్రే వందే తమత్రివరదం భుజషట్కయుక్తం. భగవతే శ్రీదత్తాత్రేయ పరబ్రహ్మణే నమః. ధ్యాయామి. ధ్యానం సమర్పయామి. ఆవాహనం. కోటి సూర్య ప్రతీతశన్నిజానందైక విగ్రహం రాజద్వైరాగ్య సామ్రాజ్యం గురుమావాహయామ్యహం. భగవతే శ్రీదత్తాత్రేయ పరబ్రహ్మణే నమః. ఆవాహయామి. ఆసనం. యమాద్యష్టాంగయోగోక్త సిద్ధాసన విరాజిత మూర్త సద్గురవే తుభ్యమాసనం పరికల్పయే. భగవతే శ్రీదత్తాత్రేయ పరబ్రహ్మణే నమః. ఆసనం సమర్పయామి. పాద్యం. యేన త్రైలోక్యమఖిలం వ్యాప్తం పాదత్రయేణ హి తస్మై సద్గురవే పాద్యం త్రిపదాయ దదామ్యహం. भगवते श्रीदत्तात्रेय परब्रह्मणे नमः पाद्यं समर्पयामि अर्घ्यम्। जतुलसी बिल्वशमी पत्राक्षतान्वितम् अर्घ्यम् स्वादुस्वर्णपात्रे कल्पितम् दत्तगृह्यताम् भगवते श्रीदत्तात्रेय परब्रह्मणे नमः अर्घ्यम् समर्पयामि आचमनीयम्। एलालवङ्गकर्पूरकस्तूरी गन्धवासितम् जलमाचमनीयार्थम् दास्ये भक्त्या जगद्गुरो भगवते श्रीदत्तात्रेय परब्रह्मणे नमः आचमनीयम् समर्पयामि। मधुपर्कः मध्वाज्यदधि संयुक्तम् स्वर्णपात्रे प्रतिष्ठितम् मधुपर्कम् गृहाणत्वम् दत्तात्रेय नमोऽस्तु ते भगवते श्रीदत्तात्रेय परब्रह्मणे नमः मधुपर्कम् समर्पयामि। स्नानम् तीर्थोदकैः काञ्चनकुम्भसंस्थैः सुवासितैर्देवकृपारसार्द्रैः मयार्पितम् स्नानविधिम् गृहाणपादाब्जनिष्ठ्योत नदीप्रवाह भगवते श्रीदत्तात्रेय परब्रह्मणे नमः स्नानम् समर्पयामि। स्नानानन्तरम् शुद्धाचमनीयम् समर्पयामि। वस्त्रम् आशावस्त्राय दीक्षाय पवित्रवसनाय च काषाय मंशुकम् दास्ये परिधानाय भिक्षवे भगवते श्रीदत्तात्रेय परब्रह्मणे नमः वस्त्रम् समर्पयामि। वस्त्रधारणानन्तरम् शुद्धा चमनीयम् समर्पयामि। यज्ञोपवीतम् सुवर्णतन्तोद्भवयज्ञसूत्रम् मुक्ताफलस्यूतमनेकरत्नम् गृहाणतद्वत्कृतमुत्तरीयम् स्वकर्मसूत्रम् धरते नमोऽस्तु भगवते श्रीदत्तात्रेय परब्रह्मणे नमः यज्ञोपवीतम् समर्पयामि। यज्ञोपवीतधारणानन्तरम् शुद्धाजमनीयम् समर्पयामि। गन्धः कस्तूरीकेसरामोदयुक्तम् पाटीरजम् रजः भस्मोद्धूलितदेहाय चन्दनम् यत्तदर्पये भगवते श्रीदत्तात्रेय परब्रह्मणे नमः गन्धम् समर्पयामि। पुष्पम् पुष्पवद्ग्रहनक्षत्रमालिने ज्ञानशीलिने मालत्यादीनि पुष्पाणि गुरवे प्रतिपादये तुलसीकुन्दमन्दारपारिजाताम्बुजैः कृताम् वैजयन्तीमिमाम् मालाम् गुरुकण्ठेऽर्पयाम्यहम् भगवते श्रीदत्तात्रेय परब्रह्मणे नमः पुष्पम् समर्पयामि। अक्षताः अक्षताश्च सुरश्रेष्ठकुङ्कुमाक्ताः सुशोभनाः मया समर्पिता भक्त्या गृहाण परमेश्वर भगवते श्रीदत्तात्रेय परब्रह्मणे नमः अक्षतान् समर्पयामि। अङ्गपूजा श्रीदत्तात्रेयाय नमः पादौ पूजयामि श्रीयोगगम्याय नमः जङ्घे पूजयामि श्रीश्वेताम्बराय नमः कटिम् पूजयामि श्रीपद्मनाभाय नमः नाभिम् पूजयामि श्रीध्याननिष्ठाय नमः हृदयम् पूजयामि श्रीचन्दनलिप्तमूर्तये नमः स्तनौ पूजयामि श्रीसहस्रबाहवे नमः बाहू पूजयामि श्री अक्षमालिने नमः कण्ठम् पूजयामि श्री अनुग्रहरूपाय नमः मुखम् पूजयामि श्रीयोगीशाय नमः नासिकाम् पूजयामि श्री अमृतवर्षिणे नमः नेत्रे पूजयामि श्रीधर्मपरायणाय नमः श्रोत्रे पूजयामि श्रीप्रणतार्तिहराय नमः ललाटम् पूजयामि श्री अनसूयात्मजाय नमः शिरः पूजयामि श्रीज्ञानविज्ञानमूर्तये नमः सर्वाण्यङ्गानि पूजयामि।